इति त्वैरसाकुलं रमितवल्लभे वल्लवाः कदापि पुरमम्बिकाकमितुरम्बिकाकानने समेत्य भवता समं निशिनिषेव्य दिव्योत्सवं सुखं सुषुपुरग्रसीत् व्रजपमुग्रनागस्तदा समुन्मुखमथोन्मुखैरभिहतोऽपि तस्मिन् बलात् अमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः तदा खलु पदा भवान् समुपगम्यपस्पर्शतम् बभौ स च निजान्तनुम् समुपसाद्य वैद्याधरीम् सुदर्शनधरप्रभो ननु सुदर्शनाख्योऽस्म्यहम् मुनीन् क्वचिदपाहसन्त इह मां व्यधुर्वाहसम् भवत्पदसमर्पणादमलताङ्गतोऽस्मीत्यसौ अमलतां गतः अस्मि इति असौ सो मेनि सन्धीस् स्तुवन्निजपदञ्ययौ व्रजपदं च गोपामुदा कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैः जहारधनदानुगः स किल शङ्खचूडोबलाः अतिद्रुतमनुद्रुतस्तमथमुक्तनारीजनम् रुरोजितशिरोमणिहलभृते च तस्या ददाः दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् भवन्तममरीदृशाममृतपारणादायिनम् विचिन्त्य किमुना लपन् विरहतापिता गोपिकाः भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः निष्ठुराकृतिरपष्ठुनिनादः तिष्ठते स्म भवते वृषरूपी शाक्वरोऽथ जगती धृतिहारी मूर्तिमेष बृहतीं प्रदधानः पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसान्निधिमवापभवन्तम् तुङ्गशृङ्गमुखमाश्वभियन्तम् सङ्गृहय्य रभसादभियन्तम् भद्ररूपमपि दैत्यमभद्रम् मर्दयन्नमदयः सुरलोकम् चित्रमद्य भगवन् वृषघातात् सुस्थिराजनि वृषस्थितिरुर्व्याम् वर्धते च वृषचेतसि भूयान् मोदयित्यभिनुतोऽसि सुरैस्त्वम् औक्षकाणि परिधावत दूरं वीक्षतामयमिहोक्षविभेदि इत्थमात्तहसि तैः सह गोपैः गेहगस्त्वमववात पुरेश सदा सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्दा गोविन्दा नारायणा अखिलगुरो भगवन् नमस्ते।